शिशन्नजातो वचक्रदत्मने स्वा अर्यद्वाज्यरुषस्य शा सति दिवो रेतसा सजते भजो वृधातमे एवहे सुमते शर्म सप्रथाः दिवोजस्कम्भो धरुणस्वा तद आपो अरुणो अंशः पर्येति विश्वताः से मे महे रोदसे दक्षदावृता समेचीनेदा धारसमिषः कविः महिप सरस्वकृतम् साम्यम् मधोर्वेगव्यो दिरदितेररतम् यत् ईषेज वृष्टेरित उस्रज वृषापान्नेताय इत ओदररग्मिजाः आत्मन्वन्नभो दुह्यते घृतम् वजरतस्य नाभिरमृतम् विजायते समीचीना स्वदानवः प्रीणन्ति तन्नरो हितमवमेहन्ति भैरवः अरा वेदंशस्य जमान ऊर्मिणा देभाव्या मनुषे बिन्वति त्वजम् दधा दिगर्भमदिते रुपस्थाजेन तोकञ्जतनजञ्जधामहे सहस्रधारे पता असश्चतस्तृतीजे सन्दुरजसि प्रजापतीः चतस्रो नाभो निहिता अवो दिवो हविर्भरन्त्यमृतम् घृतश्चुताः श्वेतम् रूपम् कृणुते यत्सिषा सति सोमो अबीढ्वाम् असुरो वेदभो मनः धियाशमे सजते सेमभिप्रपद्दिवस्कबन्धमवदर्शदुद्रिणम् अध श्वेतम् कलशङ्गोऽभिरक्तम् कार्ष्पन्ना वाज्यक्रमेत्स समान् आहिन्दिरे मनसा देवजन्तः कक्षेवते शतहिमाजको न अभ्यस्सामपवृचानस्य तैरसाव्योवारम् विपवमानधावते स मृत्यमानः कविभर्मदिन्दमस्वदस्वेन्द्राजपवमानपीतजे